आणि नंतर हे ब्रह्मणस्पती सूक्त
ओम सोमानं स्वरणं गृणे ब्रह्मणस्पते रक्षिवन्तयौषिजः योरेवान्योऽमि वहव सुवित्पुष्टिवर्धनः सनस्य रक्तु यस्तुरः मानसंसो अररुषो दूर्जः प्रणं मर्जस्य रक्षाणो ब्रह्मणस्पते सगा वीरो नरिष्यति यमिन्द्रो ब्रह्मणस्पती सोमो हिनोति मर्जम् त्वन्तम् ब्रह्मणस्पते सोम इन्द्रश्च मर्जम् दक्षिणा पात्वम् वसः उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे उपभ्रयन्तु मरुतः सुदानव इन्द्र प्राशु भवासजा स्वामिद्विषः तत्पुत्रमर्ज उपब्रूते धने हिते सुवीर्यम् मरुत स्वश्व्यन्दति तयो वाचके प्रयतो ब्रह्मणस्पते प्रदेव्येतु सुनृता अच्छा वीरम् नर्यम् पङ्क्तिरारसन् देवाय नो यन्तुनः यो वागते ददाति सुनरम् वसु सदत्ते अश्वीति श्रवाः तस्मा इराम् सुवीरामायो यामहे सुप्रतो किमनेहसम् प्रनूनम् ब्रह्मणस्पतिर्मन्त्रम् वरत्योऽप्यम् यस्मिन्नेन्द्रो वरुणो मित्रो अरीयमादेवा ओका सुचक्रिरे तमिद्वोचे मा विदधे शुशम्भुवम् मन्त्रम् देवा अनेहसम् इमाम् च वाचम् प्रत्यहरयोता नरो विश्वे त्वामावो अश्नवत को देवयन्तमश्रवजनम् को वृत्तपरीतम् प्रभ्रदाश्वान्तस्यान्तर्वक्षयन्दधे उपक्षत्रम् वृञ्चिदहन्विराज भये चित्सुक्षितिन्दोधे नास्य वर्तानत ऋतमोहाधनेनार्भे अस्ति वज्रिणाः गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्ववत्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः श्रीदशादनम् देवाश्चित्ते असुर्य प्रजे तसो बृहस्पते यज्ञियम् भागमानजो उस्रा इव सूर्यो ज्योतिषामहो विश्वे सामिज्वनिता ब्रह्मणामसि आविवाद्या परिरापस्तमा श्रितज्योतिष्मन्दमृतमृतस्योतिष्ठति बृहस्पते भीममामित्रदम्भनम् रक्षोणम् गोत्रभिदम् स्वर्विदम् सुनीतिभिरङ्गयधित्राय सेजनय्यस्त्वभ्यन्दाशान्वतमहो अश्नवत ब्रह्मविषस्तपानो मन्युमीरति बृहस्पते मयि तत्ते महित्वनम् न तमहो न दूरितम् कुतश्च न दारातयस्तिर्नद्वया विनाः विश्वा इदस्माद्वरसो विवा दशेयम् सु गोपा रक्षोति ब्रह्मणस्पते स्वन्नो गोपापधिकृद्वैलक्षणस्तव व्रताय मतिभिरजरामहे बृहस्पते यो नो अभिवरो दधे स्वातम्मरम् मर्तुदुच्चनारस्वती उत वा यो नो मर्जयादन गतोराति वा मरदस्तानुगोलकाः बृहस्पते अपदम् वर्तयापदः सुगन्नो अस्यै देववीतये कृते त्रातारम् त्वा तनूनाम् हवामहे वत्परतरदि वक्तारोमस्मयुम् बृहस्पते देवनिदो निबर्हय माधुरेवा उत्तरम् सुनमुन्नाशन् त्वया वयम् सुहृदा ब्रह्मणस्पते स्वार्हावतु मनुष्या दधीमहि यानो दूरे तळितो या अरातयोऽपि सन्ति जम्मयाता अनप्नसा त्वया वयमुत्तमन्दि महे वयो बृहस्पते पप्रेणा सस्मीनायुधा मानो दुःशंसो अभिधुरि सदा प्रसुशंसा मतिभिस्तारिकीमयि अनानुदो वृषभो जग्मीराहवन्निष्टप्ता शत्रुमृतानुसासये असि सत्य अरुणया ब्रह्मणस्पत उग्रस्य चिद्धमितावि लोहर्षिणाः अरेवेन मनासायोरि षण्यति सा मुग्रो मन्यमानो जिहांसति बृहस्पते मा प्रणक्तस्य नो वदो निकरम् ममन्नुं दुरेवस्य जरदातः भरेषु आव्यो नमसो पतद्यो गन्ता वाजे सुतनीतादनन्दनम् विश्वायिधर्यो अविदेप्सुवो मृदो बृहस्पतिर्विभवरहारथामिव ते ज्येष्ठया तपनीरक्षतस्तपये त्वा निदेदधिरे दृष्टवीर्यम् आविस्तत्रश्वयदत्तोक्त्याम् बृहस्पते विपरिरापो अर्घय बृहस्पते अतियधर्यो अर्हाद्युमद्विभाजे क्रतो मज्जनेषु यद्धीरयच्छव सकृत प्रजा तदस्मा सुद्रवीणे चित्रम् मानस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोन्नेषु जागृधु आदेवानामोह देविव्रयो हृदि बृहस्पतेन परस्वाम्नो विदो विश्वेभ्यो हितु बाभुवने बृहस्पतिष्टा जनत्साम्नः कवि सवरुणतिरुणया ब्रह्मणस्पतिर्द्रुहो हन्तामहृतस्य धर्तरि तव श्रिये व्यजित पर्वतो गवाङ्गोत्रमुदसृजो युरन्द्रः इन्द्रेण युजा तमसा परिवृतम् बृहस्पते निरपामौब्जो अर्णवम् ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधितनयम् जिन्वा विश्वम् तद्भद्रम् यदवन् देवा बृहद्वा विदधे सुवीराः से मामाविद्ये प्रभृति यीषे याविधे मनवो या महागिरा यथा नो मीर्वान् स्तवते सखा तव बृहस्पते शीर्षदस्सो ततो मयिम् यो नन्त्वान्यनमन्योजसोतधर्धर्मन्युनाशम्भोराणि प्राच्या वयदच्युता ब्रह्मणस्पतिराचाविषद्वसुमन्थम् विपर्वोतम् तद्देवाना देवतो मायकर्त्वमश्रत्नम् दृढा बृहदन्तवीरिता उद्गा आजरवेन ब्रह्मणावलमगो हतमो व्यचक्षयत् स्वाहा अस्मात्यमवतम् ब्रह्मणस्पतिर्मधुधारमभिरमोदसातृणत तमेव विश्वे अभिरे स्वर्दृशो बहु साकम् श्रीशिजुरुत्तमधृणम् सनाता काचिर्भुवना भवेत् त्वामाद्भिशरद्भिर्दुरोरन्दवः अयोतन्ताचरतो अन्यदम् यदिद्या चकार वयुना ब्रह्मणस्पति अभिलक्षन्तो अभियेतमा न शर्निलिम्बणीनाम् परमम् वाहितम् विद्वांसः प्रतिचक्ष्यामृत पुनर्यत उवायन्तदुदीरविषम् हृतावान प्रतिचक्ष्यामृता पुनरातस्तु कवयो महत्वधा ते बाहुभ्याम् दमितमग्निमश्वानि न केशो अत्यरणो जहुहितम् ऋतज्ञेन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टे प्रददश्नोति धन्वो न तस्य साभिर्षभोजाभिरस्य दृशक्षसो दृशये कर्णयो नयः सन्नयः सविनयः पुरोहितः सदुष्टूतस्य युधि ब्रह्मणस्पति क्ष्मो यद्वा जम्बरते मकीधनायत्सु यस्तकृतप्यदुर्वृथा विभो प्रभु प्रथमम् मे अनावतो बृहस्पते सुविदत्राणि राध्या विमासानि वेण्यस्य वाजिनो येन जना उभये भुञ्जते विशाः यो वरे वृजने विश्वता विभुर्महामूरण्वश्यवता भवक्षीः स देवो देवान् प्रदीप प्रदे पृथु विश्वे सुताभोर्ब्रह्मणस्पति विश्वं सत्यं भगवानायुर्वापश्चन प्रलीनम् च व्रतम् वाम् अच्छेन्द्रा ब्रह्मणस्पति हविर्नो न युजेव वाजिनायुगादम् उदाशिष्ठा अनुसृणवन्ति वह्नाय सवेयो विप्रो भरते मतीगणा वीरुद्वेषा अनुवश ऋणमादयिष्टवारीकमिते ब्रह्मणस्पति ब्रह्मणस्पतेर्भवद्यथा वशम् सत्यो मन्युर्महि कर्म करिष्यतः योगा उला यच्छति वेविता भजन मही वारी ब्रह्मणस्पते स्वयमस्य विश्वः रायस्यामरत्यो वयस्वतः वीरेषु वीराम् उपवृन्दिनः त्वय्यदीशानो ब्रह्मणावेशिमेऽहवम् ब्रह्मणस्पते त्वमस्य यन्दासु कस्य बोधितनो यञ्जिन्व विश्वन्तभद्रं यदवन् देवा बृहद्वदेव विरथे सुवीराः इन्द्रानो अग्निं वनवद्वनुष्यतः कृतब्रह्मशोषुभद्रातः यैव जातेन जातमतिसप्रसरधृते यञ्जयुजं कृते ब्रह्मणस्पती वीरेभिर्वीरान् वनवद्वनुष्यतो गोभिर्गैम्बप्रसद्बोधोऽतित्मना तो पञ्चदस्य तन यञ्च वर्धते यञ्जयुजं कृते ब्रह्मणस्पतिः सिन्धुर्नक्षोदशिमी वा मृगायतो वृषे भवधीरविभक्ष्यो जोता अग्नेरिव प्रसीतिर्नाह वर्तवेयञ्जयुजं कृते ब्रह्मणस्पतिः तस्मारक्षन्ति दिव्याश्च तस्य सद्भवे प्रथमो गोषु गच्छति अनिवृष्टतविषर्हन्त्यो जथायञ्जयुजं कृते ब्रह्मणस्पतिः तस्मा इति विश्वे दुनयन्त सिन्धवो चिदुराचरम दरिरे पुरूणि देवानाम् सुम्नेषु भगः स एयञ्जयुजं कृणुते ब्रह्मणस्पतिः ऋजुरिच्छंसो वनवद्वनुष्यतो देवयञ्जते वयन्तमभ्यसत सुप्रावीरिद्वनवत्पृच्छुदुष्टरञ यद्वेदयज्ञो विभजाति भोजनम् यजस्व वीर प्रवीः मनायतो भद्रम् मनः कृणुष्वृत्रचूर्ये हविष्कृणुष्व सुभगो यथा चाति ब्रह्मणस्पतेरव आवृणीमहे सैर्जनेन सविशास जन्मानासपुत्रैर्वाजम् भरति धनान्वीः देवानाय पितरमाभिवादते श्रद्धामनाहविषा ब्रह्मणस्पतिम् यो अस्मै हव्यैर्घृतवद्भिरविधत्प्रतम् प्राचादयते ब्रह्मणस्पतिः उरुष्यति मम हसो रक्षोतिदस्मा उरुदक्रिरद्भूतः समुज्येष्ठन्नमसा हविरविसुषेवम् ब्रह्मणस्पतिम् गृणीषे इन्द्रां श्लोको महिदैव्यसृजत्तुयो ब्रह्मणो देवघृतस्य राजा इयम् वाम् ब्रह्मणस्पते सुहृद्ब्रह्मेन्द्राय वज्रणे अकारि अवेष्टन्द्रियो जिघृतम् पुरन्धि यजस्तमर्यो वनुषामरादि तत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यरुचि अरायम् ब्रह्मणस्पतेति न शृङ्गो दृशन्निः अधो यद्वारो प्लवते सिन्धो पारे अपूरुषम् तदारभस्व दुर्हणो तेन गच्छ परस्परम् अग्निर्येण विराजति सूर्यो येन विराजति विराज्येन विराजति तेनात्मान् ब्रह्मणस्पते विराजसमिदम् गुरुः